अथ द्वितीयः सर्गः।
विहितां प्रियया मनः प्रियाम् अथ निश्चित्य गिरं गरीयसीम् उपपत्तिमदुर्जिताश्रयम् नृपमूचे वचनं वृकोदरः।
विहितामिति अथ वृकोदरः भीमः प्रियया द्रौपद्या प्रियाग्रहणम् अस्याः हितोपदेशतात्पर्यसूचनार्थम् विहिताम् अभिहिताम् इत्यर्थः। विपूर्वस्य दधातेः क्रियासामान्यवाचिनः योग्यविशेषपर्यवसानात् मनःप्रियाम् अभिमतार्थयोगात् मनोहराम् विशेषणद्वयेनापि गिरः ग्राह्यत्वम् उक्तम्। गिरम् गरीयसीम् सारवत्तराम् निश्चित्य नृपम् धर्मराजम् उपपत्तिमत् युक्तियुक्तम् ऊर्जिताश्रयम् उदारार्थम् वचनम् ऊचे उक्तवान्। कर्तरि लिट् ब्रुवो वचिरादेशः ब्रुविशासि इत्यादिना द्विकर्मकत्वम् अकथितञ्च इति नृपस्य कर्मत्वम्।
यदवोचत वीक्ष्यमानिनि परितस्नेहमयेन चक्षुषा अपि वागधिपस्य दुर्वचम् वचनम् तद्विदधीत विस्मयम्। यदिति मानिनी क्षत्रियकुलाभिमानवती द्रौपदी स्नेहमयेन स्नेहप्रचुरेण तत्प्रकृतवचने मयट् चक्षुषा ज्ञानचक्षुषा एतेन आप्तत्वम् उक्तम्। परितः वीक्ष्य समन्ततः विविच्य यद्वचनम् अवोचत ब्रुवो वक्तेर्वा लुङ् वच इति उमागमः। वागधिपस्य बृहस्पतेरपि दुर्वचम् वक्तुम् अशक्यम् शेषे षष्ठीयम् न कृद्योगलक्षणा। अतः नलोक इत्यादिना षष्ठीप्रतिषेधो नास्ति। तद्वचनम् विस्मयम् विदधीत सर्वस्यापीति शेषः अथवा वागधिपस्यापि विस्मयम् विदधीतेति सम्बन्धः। दुर्वचम् केनापीति शेषः यतः स्त्रैणमपि शास्त्रम् अनुरुणद्धि हितम् च अनुबध्नाति। अतः विस्मयकरम् ग्राह्यम् च एतद्वचनमिति तात्पर्यार्थः। विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः स तु तत्र विशेष दुर्लभः सदुपन्यस्यति कृत्यवर्त्मयः। विषम इति विषमोऽपि दुर्बोधोऽपि अन्यत्र दुष्प्रवेशोऽपि नयः नीतिशास्त्रम् पयसाम् आशयः ह्रदः इव कृततीर्थः कृताभ्यासाद्युपायस्सन् तीर्थम् शास्त्राध्वरक्षेत्रोपाय उपाध्यायमन्त्रिषु इति विश्वः। अन्यत्र कृतजलावतारः सन् तीर्थम् योनौ जलावतारे च इति हलायुधः। विगाह्यते गृह्यते प्रविश्यते च किन्तु तत्र नये जलाशये च सः तादृशः पुरुषः विशेषदुर्लभः अत्यन्तदुर्लभः यः कृत्यम् सन्धिविग्रहादिकार्यम् स्नानादिकम् च तस्य वर्त्म सत् साधु देशकालाद्यविरुद्धम् यथा तथा। अन्यत्र गर्तग्राहपाषाणादिरहितम् यथा तथा उपन्यस्यति उदाहरति। उपन्यासस्तु वाङ्मुखम् उपोद्घात उदाहारः
इत्यमरः यथा केचित् कृततीर्थे पयसि गंभीरेपि प्रवेष्टारः सन्ति तीर्थकरस्तु विरलः तद्वत् नीतावपि गूढमपि तत्त्वं वक्तरिसति बोद्धारः सन्ति वक्ता तु न सुलभः अतः इयम् अपठितापि साधुवक्तीति युज्यते विस्मय इत्यर्थः परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः परिणामेति परिणामः फलकालः परिपाकावस्था च तत्र सुखे हिते शस्तञ्चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च इति सुखशब्दस्य विशेष्यलिङ्गत्वम् गरीयसि भूयिष्ठे श्रेष्ठे च क्षतौदसाम् उभयत्रापि क्षीणशक्तीनाम् व्यथके युद्धोपोद्बलकत्वात् भयङ्करे अन्यत्र आदौ संशयादिदुःखजनके अल्पीयसि अल्पाक्षरे अल्पमात्रे उक्तं च स्वल्पा च मात्रा बहुलो गुणश्च इति अस्मिन् वचसि द्रौपदीवाक्ये अतिवीर्यवति अत्यन्तसामर्थ्यवति भेषजे औषधे इव भेषजौषधभैषज्यम् इत्यमरः बहुः अनेकः गुणः मानत्राणराज्यलाभादिः आरोग्यबलपोषादिश्च दृश्यते अतः ग्राह्यम् अस्याः वचनमिति भावः सत्यमेवं तथापि नार्युक्ततया मह्यं न रोचते इति चेत् तत्र आह इयमिष्टगुणाय रोचताम् रुचिरार्था भवतेऽपि भारती ननु वक्तृविशेष निःस्पृहाः गुणगुह्या वचने विपश्चितः इयमिति रुचिरार्था महितार्थसम्पन्ना इति रुचिहेतूक्तिः इयम् भारती द्रौपदीवाक्यम् इष्टगुणाय गुणग्राहिणे इत्यर्थः भवते तुभ्यम् अपि रुच्यर्थानाम् प्रीयमाणः इति सम्प्रदानत्वात् चतुर्थी रोचताम् स्वदताम् विध्यर्थे लोट् हितवचने बलादपि इच्छाम् कुर्यात् औषधवदिति भावः तथापि स्त्रैणे वचसि का श्रद्धा तत्र आह नन्विति गुणानाम् गृह्याः गुणगृह्याः गुणपक्षपातिन इत्यर्थः पदास्वैरिबाह्यापक्षेषु च इति ग्रहेः क्यप् विपश्चितः विद्वांसः विद्वान् विपश्चिद्दोषज्ञः इत्यमरः वचने विषये वक्तृविशेषे स्त्रीपुंसादिलक्षणे निःस्पृहाः ननु निरास्थाः खलु बालादपि सुभाषितम् ग्राह्यम् इति न्यायादिति भावः चतसृष्वपि ते विवेकिनी नृपविद्यासु निरूढिमागता कथमेत्यमतिर्विपर्ययम् करिणीपङ्कमिवावसीदति चतसृष्विति हे नृप चतसृष्वपि विद्यासु आन्वीक्षिक्यादिषु आन्वीक्षिकी त्रयीवार्ता दण्डनीतिश्च शाश्वती विद्याश्चैताश्चतस्रस्तु लोकसंस्थितिहेतवः इति कामन्दकः निरूढिम् आगता प्रसिद्धिम् गता अत एव विवेकिनी सदसद्विवेकवती यथाह मनुः आन्वीक्षिक्यान्तु विज्ञानम् धर्माधर्मौ त्रयी स्थितौ अर्थानर्थौ तु वार्तायाम् दण्डनीत्याम् नयानयौ इति ते मतिः कथम् करिणी पङ्कमिव विपर्ययम् वैपरीत्यम् अविवेकरूपम् एत्य अवसीदति नश्यति तन्नयुक्तम् इति भावः विधुरम् किमतः परम्परैः अवगीताम् गमिते दशामिमाम् अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्तिपौरुषम् विधुरमिति त्वयि परैः शत्रुभिः इमाम् ईदृशीम् अवगीताम् गर्हिताम् अवगीतम् तु निर्वादे मुहुर्दृष्टे च गर्हिते इति विश्वः दशाम् गमिते प्रापिते सति सुरैरपि सम्भावितवृत्ति बहुकृतप्रसारम् अथवा निश्चितसद्भावम् पौरुषम् पुरुषकारः युवादित्वात् अण्प्रत्ययः अवसीदति नश्यतीति यत् अतः परम् अतः अन्यत् अधिकम् किम् विधुरम् किम् कष्टम् न किञ्चिदित्यर्थः विधुरम् प्रत्यवाये स्यात् कष्टविश्लेषयोरपि इति वैजयन्ति अस्तीति शेषः अस्तिर्भवन्ति परः प्रथमपुरुषः अप्रयुज्यमानोऽप्यस्तीति भाष्यकारः भवन्तीति लटः पूर्वाचार्याणाम् संज्ञा यद्वा पुरुषाधिकारस्य दुर्दशा सा च शत्रुकृता तदुपरि महत्कष्टम् तच्च त्वदुपेक्षया इति उपालभ्यसे इत्यर्थः उपेक्षाकालोऽयमिति मत्वा उपेक्षे इति चेत् नायम् उपेक्षाकाल इति श्लोकद्वयेन विविनक्ति द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः द्विषतामिति भूतिम् उदयम् इच्छता शोभना मेधा यस्य तेन सुमेधसा सुधिया नित्यमसित् प्रजामेधयोः इति असिच् प्रत्ययः गुरुः महानपि अस्वन्ततरः अत्यन्तदुरन्तः क्षयोन्मुखः इत्यर्थः द्विषताम् उदयः वृद्धिः सुखेन मृष्यत इति सुमर्षणः सुसहः उपेक्ष्य इत्यर्थः स्वन्तश्चेत् दुर्मर्षण इति भावः भाषायाम् शासि इत्यादिना खलर्ते युच् प्रत्ययः महानपि फलसम्पत्प्रवणः फलसम्पदुन्मुखः प्रनिरन्तर् इत्यादिना णत्वम् परिक्षयः न सुमर्षणः नोपेक्ष्य इत्यर्थः अन्यथा तु उपेक्ष्य इति भावः न हि उदये एव प्रतीकार्यः न च क्षये इत्येव उपेक्ष्यः किन्तु स्वन्तत्व अस्वन्तत्वाभ्याम् उभावपि प्रतीकार्यौ उपेक्ष्यौ च भवतः इत्यर्थः अचिरेण परस्य भूयसीम् विपरीताम् विगणय्य चात्मनः क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा अचिरेणेति कृतम् अनेनेति कृती कुशल इत्यर्थः इष्टादिभ्यश्च इति इनिप्रत्ययः परस्य शत्रोः क्षययुक्तिम् क्षययोगम् अचिरेण आशुभाविनीम् भूयसीम् दुरन्ताञ्च तथा आत्मनः क्षययुक्तिम् विपरीताम् चिरभाविनीम् अल्पीयसीम् च
विगणय्य विचार्य ल्यपि लघुपूर्वात् इत्ययादेशः उपेक्ष्यते अन्यथा उक्तवैपरीत्ये परस्य क्षययुक्तौ अल्पीयस्याम् स्वस्य भूयस्याञ्च सत्यामित्यर्थः तत्प्रतिकारम् तस्याः क्षययुक्तेः प्रतिकारम् अचिरेण आशु कुरुते एवं सति यदा शत्रोः अभ्युदयः स्वस्य च अतिपरीक्षयः यथा अस्माकम् तदा किम् वक्तव्यम् सद्यः प्रतिकुरुते इति अर्थात् सिद्धम् अनुसन्धेयम् अनुपालयतामुदेश्यतीम् प्रभुशक्तिम् द्विषतामनीहया अपयाञ्चिरान्मही भुजाम् जननिर्वादभयादिवश्रियः अनुपालयताम् इति उदेश्यतीम् वर्धिष्यमाणाम् आच्छीनद्योर्नुम् इति विकल्पात् नुमभावः द्विषताम् प्रभुशक्तिम् कोशदण्डजम् तेजः सत्प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम् इत्यमरः अनीहया अनुत्साहेन अनुपालयताम् उपेक्षमाणानाम् महीभुजाम् श्रियः सम्पदः जननिर्वादभयात् निकृष्टपुरुषानुरागोत्थलोकापवादभयादिव इति हेतूत्प्रेक्ष्य अचिरात् अपयान्ति अपसरन्ति यथाह कामन्दकः स्त्रीभिः षण्ड इव श्रीभिः अलसः परिभूयते इति अतः पराक्रमितव्यमित्यर्थः
क्षययुक्तमपि स्वभावजम् दधतम् धाम शिवम् समृद्धये प्रणमन्त्यनपायमुत्थितम् प्रतिपच्चन्द्रमिव प्रजानृपम् क्षयेति क्षययुक्तमपि तथा क्षीणमपि सन्तम् स्वभावजम् सहजम् शिवम् सर्वलोकाह्लादकम् धाम क्षात्रम् तेजः प्रकाशञ्च दधतम् समृद्धये वृद्ध्यर्थम् उत्थितम् उद्युक्तम् वर्धिष्णुमित्यर्थः नृपम् प्रजाः प्रतिपच्चन्द्रम् द्वितीयाचन्द्रमिवेत्यर्थः प्रतिपच्छब्देन द्वितीयाग्रहणम् प्रतिपदि तस्य अदृश्यत्वादिति प्रणमन्ति पह्वीभावेन वर्तन्त इति भावः चन्द्रम् तु नमस्कुर्वन्ति क्षीणस्यापि उत्साहः कार्यसिद्धेः निदानमित्यर्थः जयम् हि सततोत्साही दुर्बलोऽपि समश्नुते इति कामन्दकः प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयोनयः सविधेयपदेषु दक्षताम् नियतिम् लोक इवानुरुध्यते प्रभव इति कर्मणाम् आरम्भोपायः पुरुषद्रव्यसम्पत् देशकालविभागः विनिपातप्रतीकारः कार्यसिद्धिश्चेति पञ्चाङ्गानि यथाह कामन्दकः सहायाः साधनोपायाः विभागो देशकालयोः विनिपातप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते इति पञ्चानाम् अङ्गानाम् विनिर्णयः पञ्चाङ्गविनिर्णयः तद्धितार्थ इत्यादिना उत्तरपदसमासः कृतः पञ्चाङ्गविनिर्णयः यस्य येन वा सः तथोक्तः नयः नीतिः मन्त्र इति यावत् कोशः अर्थराशिः कोशोऽस्त्री कुड्मले खड्गपिधाने अर्थौघदिव्ययोः इत्यमरः दण्डः चतुरङ्गसैन्यम् दण्डोस्त्री शासने राज्ञाम् हिंसायाम् लगुडे यमे यात्रायाम् सैन्यभेदे च इति वैजयन्ती तयोः कोशदण्डयोः प्रभुशक्तेरित्यर्थः प्रभवति अस्मादिति प्रभवः कारणम् रूदोरप् स नयः विधेयपदेषु कार्यवस्तुषु पदम् व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु इत्यमरः दक्षताम् क्षिप्रकारित्वम् उत्साहमित्यर्थः लोकः कृष्यादिप्रवृत्तः जनः नियतिम् दैवमिव नियतिर्नियमे दैवे इति विश्वः अनुरुध्यते अनुसरति रुधेः दैवादिकात् कर्तरि लट् मन्त्रस्यापि मूलम् उत्साहः तन्मूलायाः प्रभुशक्तेः मूलमिति किमु वक्तव्यम् अतः स एव आश्रयणीयः यतः नक्तन्दिवम् मन्त्रयतः तस्यापि प्रभोः निरुत्साहस्य न किञ्चित् सिध्यतीति अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः विनिपातनिवर्तनक्षमम् मतमालम्बनमात्मपौरुषम् अभिमानवत इति अभिमानवतः मानधनस्य प्रियम् इष्टम् उच्चैः उन्नतम् पदम् स्थानम् राज्यादिकम् आरुरुक्षतः आरोढुमिच्छतः प्राप्तुकामस्य मनस्विनः धीरस्य आत्मपौरुषम् स्वपुरुषकार एव विनिपातनिवर्तनक्षमम् अनर्थप्रतीकारसमर्थम् आलम्बनम् सहकारि मतम् इष्टम् यथा कस्यचित् तुङ्गम् आरोहतः किञ्चित् पतनप्रतिबन्धकम् अनुचरहस्तादिकम् आलम्बनम् तद्वदिति ध्वनिः किम् पौरुषात् अन्यैः सहायैः शूराणामिति भावः विपदोऽभिभवन्त्यविक्रमम् रहयत्यापदुपेतमायतिः नियता लघुता निरायतेः अगरीयान्न पदम् नृपश्रियः विपद इति अविक्रमम् पौरुषहीनम् विपदः अभिभवन्ति आक्रामन्ति आपदुपेतम् विपन्नम् आयतिः उत्तरकालः उत्तरः काल आयतिः इत्यमरः रहयति त्यजति निरायतेः आसन्नक्षयस्येत्यर्थः लघुता अगौरवम् नियता अवश्यम्भाविनी न कश्चित् एनम् आद्रियत इत्यर्थः अगरीयान् लघीयान् नृपश्रियः राज्यलक्ष्म्याः पदम् आस्पदम् न भवति यद्वा नृपेति पदच्छेदः तस्मात् पौरुषम् कर्तव्यमेवेत्यर्थः अत्र पूर्वपूर्वस्य अविक्रमत्वादेः उत्तरोत्तरम् विपदादिकम् प्रति कारणत्वात् कारणमालाख्यः अलङ्कारः तथा च सूत्रम् पूर्वपूर्वस्य उत्तरोत्तरहेतुत्वे कारणमाला इति तदलम् प्रतिपक्षमुन्नतेः अवलम्ब्य व्यवसायवन्ध्यताम् निवसन्ति पराक्रमाश्रयाः न विषादेन समम् समृद्धयः तदिति तत् तस्मात् उपेक्षायाम् दोषसम्भवादित्यर्थः उन्नतेः अभ्युदयस्य प्रतिपक्षम् अन्तरायम् व्यवसायवन्ध्यताम् उद्योगशून्यताम् अवलम्ब्य अलम् अवलम्बनेन अलमित्यर्थः अलङ्खल्वोः प्रतिषेधयोः प्राचाङ्क्त्वा इति त्वा प्रत्ययः तस्य ल्यबादेशः तथा हि पराक्रमः आश्रयः कारणं यासांताः तथोक्ताः समृद्धयः संपदः विषादेन समं अनुत्साहेन सह न निवसन्ति पौरुषसाध्याः संपदः न अनुत्साहसाध्याः उभयोः सहावस्थानविरोधादित्यर्थः वैधर्म्येण कार्यकारणरूपः अर्थान्तरन्यासः